इत्येवं विरचय्य सम्प्रति परात् द्रव्यान्निवृत्तिं परां स्वं विज्ञान घनस्वभावमभया दास्तिघ्नुवानः परम् अज्ञानोत्थितकर्तृकर्मकलनात् क्लेशान्निवृत्तः स्वयं ज्ञानीभूत इतश्च कास्ति जगतः साक्षी पुराणः पुमान्।